श्रीमद्भागवत महापुराणम् दशमस्कन्धः अथ षट्चत्वारिंशोऽध्यायः श्रीशुक उवाच वृष्णीनां प्रवरो मन्त्री कृष्णस्य दयितसखा शिष्यो बृहस्पते साक्षा दुद्धवो बुद्धिसत्तमः तमाह भगवान् प्रेष्ठम् भक्तमेकान्तिनं क्वचित् गृहीत्वा पाणिना पाणिं प्रपन्नार्ति हरो हरिः गच्छोद्धव व्रजं सौम्य पित्रोर्नौ प्रीतिमावह गोपी मत्सन्देशैर्विमोचय तामन्मनस्का मत्प्राणा मदर्थे त्यक्तदैहिकाः मामेव दयितं प्रेष्ठ मात्मानं मनसागता धर्माश्च मदर्थे तान् विभर्म्यहम् मयिताः प्रेयसां प्रेष्ठे दूरस्थे गोकुलस्त्रियः स्मरन्त्योऽङ्गविमुह्यन्ति विरहौत्कण्ठ्यविह्वलाः धारयन्त्यतिकृच्छ्रेण प्रायः प्राणान् कथैचन प्रत्यागमन सन्देशैर्बल्लव्यो मे मदात्मिकाः श्रीशुक उवाच इत्युक्त उद्धवो राजन् सन्देशं भर्तुरादृतः आदाय रथमारुह्य प्रययौ नन्दगोकुलम् प्राप्तो नन्दव्रजं श्रीमान् निम्लोचति विभावसौ छन्नयानः प्रविशतां पशूनां खुररेणुभिः वासितार्थेभियुध्यद्भिर्नादितं शुष्मिभिर्वृषैः धावन्तीभिश्च वास्राभि रूधो सकान् इतस्ततौ विलङ्घद्भिर्गोवत्सैर्मण्डितं सितैः गोदोहशब्दाभिरव वेणूनान्निस्वनेन च गायन्तीभिश्च कर्माणि शुभानि बलकृष्णयोः स्वलङ्कृताभिर्गोपीभिर्गोपैश्च सुविराजितम् अग्न्यर्कातिथिगोविप्र पितृदेवार्चनान्वितैः धूपदीपैः गोपैश्च गोपावासैर्मनोरमम् सर्वतः पुष्पितवनं द्विजालिकुलनादितं हंसकारण्डवाकीर्णैः पद्मषण्डैश्च मण्डितम् तमागतं समागम्य कृष्णस्यानुचरं प्रियं नन्दः प्रीतः परिष्वज्य वासुदेवधियार्चयत् भोजितं परमान्येन संविष्टं कशिपौ सुखम् गतश्रमं पर्यपृच्छत् पादसंवाहनादिभिः कच्चिदङ्गमहाभाग सखानशूरनन्दनः आस्ते कुशल्यपत्याद्यैर्युक्तो मुक्तस्तु रुद्रुतः दिष्ट्या कंसो हतः पापस् सानुगस्वेन पाप्मना साधूनां धर्मशीलानाय यदूनां द्वेष्टिय सदा अपि स्मरति नः कृष्णो मातरं सुहृदस्सखी गोपान् व्रजै चात्मनाथं गावो वृन्दावनं गिरिम् अप्यायास्यति गोविन्दस् स्वजनान् सकृदीक्षितुम् तर्हि द्रक्ष्याम तद्वक्त्रम् सुनसं सुस्मिते क्षणम् दावाग्निर्वातवर्षाच्च वृषसर्पाच्च रक्षिताः दुरत्ययेभ्यो मृत्युभ्यः कृष्णेन सुमहात्मना स्मरतां कृष्णवीर्याणि लीलापाङ्गनिरीक्षितं हसितं भाषितै चाङ्ग सर्वानशिथिलाक्रियाः सरिच्छैलवनोद्देशान्मुकुन्दपदभूषितान् आक्रीडानीक्षमाणानां मनो याति तदात्मताम् मन्ये कृष्णै च रामै च प्राप्ता विह सुरोत्तमौ सुराणां महदर्थाय गर्गस्य वचनैयथा कंसन्नागायुतप्राणं मल्लौ गजपतिं तथा अवधिष्टालीलयैव पशूनिव मृगाधिपः तालत्रयमहासारन् धनुर्यष्टिमिरेभरान् बभैजैकेन हस्तेन सप्ताहमदधाद्गिरिं प्रलम्बो धेनुकोरिष्टसृणावर्तो बकादयः दैत्यासुरासुरजितो हता येनेहलीलया श्रीशुक उवाच उवाच इति संस्मृत्य संस्मृत्य नन्दः कृष्णानुरक्तधीः अत्युत्कण्ठो भवत्तूष्णीं प्रेमप्रसरविह्वलः यशोदावर्ण्यमानानि पुत्रस्य चरितानि च शृण्वन्त्यशून्यवास्राक्षी स्नेहस्नुतपयोधरा तयोरित्थं भगवति कृष्णे नन्दयशोदयोः वीक्ष्यानुरागं परमन् नन्दमाहोद्धवो मुदा उद्धव उवाच युवां श्लाघ्यतमौ नूनन् देहिनामिह मानद नारायणेऽखिल गुरौ यत्कृतामतिरीदृशी एतौ हि विश्वस्य च बीजयोनिः रामो मुकुन्दः पुरुषः प्रधानम् अन्वीयभूतेषु विलक्षणस्य ज्ञानस्य चेशातैमौ पुराणौ यस्मै जनः प्राणवियोगकाले क्षणं समावेश्य मनो विशुद्धं निवृत्त्य कर्माशयमाशु याति परांगतिं ब्रह्ममयोर्कवर्णः तस्मिन् भवन्तावखिलात्महेतौ नारायणी कारणमर्त्यमूर्तौ भावं विधत्तान् नितरां महात्मन् किंवावशिष्टैर्युवयोः सुकृत्यम् आगमिष्यत्यदीर्घेण कालेन व्रजमच्युतः प्रियौ विधास्यते पित्रोर्भगवान् सात्वतां पतिः हत्वा कंसं रङ्गमध्ये प्रतीपं सर्वसात्वतां यदा हवस्समागत्य कृष्णः सत्यं करोति तत् मा खिद्यतं महाभागौ द्रक्ष्यथक् कृष्णमन्तिके अन्तर्हृदि स भूतानामास्ते ज्योतिरिवैधसि नैयस्यास्ते प्रियः कश्चिन् नाप्रियो वास्त्यमानिनः नोत्तमो नाधमो नापि समानस्यासमोऽपि वा न माता न पिता तस्य न भार्या न सुतादयः नात्मीयो न परश्चापि न देहो जन्म एव च न चास्य कर्म वा लोके सदसन्मिश्रयोनिषु क्रीडार्थस्योऽपि साधूनां परित्राणाय कल्पते सत्त्वं रजस्तम इति भजते निर्गुणो गुणान् क्रीडन्नतीतो त्रगुणैः सृजत्यवति हन्त्यजः यथा भ्रमरिका दृष्ट्या भ्राम्यतीव महीयते चित्ते कर्तरि तत्रात्मा कर्तेवाहं धिया स्मृतः युवयोरेव नैवायमात्मजो भगवान् हरिः सर्वेषामात्मजो यात्मा पिता माता स ईश्वरः दृष्टं श्रुतं भूतभवद्भविष्यत् स्थास्नुश्चरिष्णुर्महदल्पकैच विनाच्युताद्वस्तुतरान्नवाच्यं विनाच्युताद्वस्तुतरान्नवाच्यं सैव सर्वं परमार्थभूतः सैव सर्वं परमार्थभूतः सैव सर्वं परमार्थभूतः एवं निशासा ब्रुवतोर्व्यतीता नन्दस्य कृष्णानुचरस्य राजन् गोप्यः समुत्थाय निरूप्य दीपान् गोप्यः समुत्थाय निरूप्य दीपान् वास्तून् समभ्यर्च्य दधीन्यमन्थन् वास्तून् समभ्यर्च्य दधीन्यमन्थन् वास्तून् समभ्यर्च्य दधीन्यमन्थन् तादीपदीप्तैर्मणिभिर्विरेजो रज्जुर्विकर्षद्भुजकङ्कणस्रजः चलन्नितम्बस्तनहारकुण्डलत् त्विषत्कपोलारुणकुङ्कुमाननाः उद्गायतीनामरविन्दलोचन व्रजाङ्गनानान्दिवमस्पृशध्वनिः दन्तश्च निर्मन्थनशब्दमिश्रितो निरस्यते येन दिशाममङ्गलम् भगवत्युदिते सूर्ये नन्दद्वारे व्रजौकसः दृष्ट्वा रथं शातकौम्भं कस्यायमिति चाब्रुवन् अक्रूरागतः किंवा यः कंसस्यार्थसाधकः येन नीतो मधुपुरीं कृष्णः कमललोचनः किं साधयिष्यत्यस्माभिर्भर्तुः प्रीतस्य निष्कृतिम् इति स्त्रीणा वदन्ति नामुद्धवो गात्कृतानिकः। इति श्रीमद्भागवते महापुराणे पारमहंस्यां संहितायां दशमस्कन्धे पूर्वार्धे नन्दशोकापनयनन्नाम षट्चत्वारिंशोऽध्यायः। ॐ सर्वं श्रीकृष्णार्पणमस्तु।